ओम नमो भगवते वासुदेवाय। अथ चतुर्थोऽध्यायः। मैत्रेय उवाच, एतावदुक्त्वा विरराम शङ्करः पत्न्यङ्गनासं युभयत्र चिन्तयन्। सुहृद्दिदृक्षुः परिशङ्किता भवान् निष्क्रामति निर्विशति द्विधा ससा। सुहृद्दिदृक्षा प्रतिघातदुर्मनाः स्नेहादृदत्यश्रुकलातिविह्वला। भवं भवान्यप्रतिपूरुषं रुषा प्रदक्षति वैक्षतजातवे पथुः। ततो विनिश्वस्य सती विहाय तं शोकेन रोषेण च दूयता हृदा। पित्रोरगात्स्त्रैण विमूढधीर्गृहान् प्रेम्णात्मनो योर्ध्वमदात् सतां प्रियः। तामन्वगच्छन् द्रुतविक्रमां सतीमेकां त्रिनेत्रानुचरा सहस्रशः। सपार्षदयक्षा मणिमन्मदादयः पुरोवृषेन्द्रास्तरसा गतव्यथाः। तां सारिका कन्दुकदर्पणाम्बुज श्वेतातपत्रव्यजनस्रगादिभिः। गीतायनैर्दुन्दुभिशङ्कवेणुभिर्वृषेन्द्रमारोप्य विटङ्किता ययुः। आब्रह्मघोषोर्जितयज्ञवैशसं विप्रर्षिजुष्टं विबुधैश्च सर्वशः। मृद्दार्वयः काञ्चनदर्भचर्मभिर्निसृष्टभाण्डं यजनं समाविशत्। तामागतां तत्र न कश्चनाद्रियद्विमानितां यज्ञकृतो भयाज्जनः। ऋते स्वश्रीर्वै जननीं च सादरा प्रेमाश्रुकण्ठ्य परिशस्वजुर्मुदा। सौदर्यसम्प्रश्नसमर्थवार्तया मात्रा च मातृश्वश्रीभिश्च सादरम्। दत्तां सपर्यां वरमासनं च सा नादत्तपित्रा प्रतिनन्दिता सती। अरुद्रभागं तमवेक्ष्य चाध्वरं पित्रा च देवे कृतहेलनं विभौ। अनादृता यज्ञसदस्यधीश्वरी चुकोपलोकानिव दक्ष्यति रुषा। जगर्हसामर्षविपन्नया गिरा शिवद्विषं धूमपथश्रमस्मयम्। स्वतेजसा भूतगणान् समुत्थितान् निगृह्य देवी जगतोऽभिशृण्वतः। श्रीदेव्युवाच, नयस्य लोकेऽस्त्यतिशायनः प्रियस्तथा प्रियो देहभृतां प्रियात्मनः। तस्मिन् समस्तात्मनिमुक्तवैरके ऋते भवन्तं कतमप्रतीपयेत्। दोषान् परेषां हि गुणेषु साधवो गृह्णन्ति केचिन्न भवादृशा द्विज। गुणांश्च फल्गून् बहुलीकरिष्णवो महत्तमास्तेष्वविदद्भवानघम्। नाश्चर्यमेतद् यदसत्सु सर्वदा महद्विनिन्दा कुणपात्मवादिषु। शेर्ष्यं महापुरुषपादपांसुभिर्निरस्ततेजःसु तदेव शोभनम्। यद्व्यक्षरं नाम गिरेरितं नृणां सकृत्प्रसङ्गादघमाशु हन्ति तत्। पवित्रकीर्तिं तमलङ्ग्यशासनं भवानहो द्वेष्टि शिवं शिवेतरः। यत्पादपद्मं महतां मनोलिभिर्निषेवितं ब्रह्मरसासवार्थिभिः। लोकस्य यद्वर्षति चाशिषोऽर्थिनस्तस्मै भवान् द्रुह्यति विश्वबन्धवे। किं वा शिवाख्यमशिवं न विदुस्त्वदन्ये ब्रह्मादयस्तमवकीर्य जटाश्मशाने। तन्माल्यभस्मनृकपाल्यवसत्पिशाचैर्ये मूर्धभिर्दधति तच्चरणावसृष्टम्। कर्णौ पिधाय निर्याद्यदकल्पयीषे धर्मा वितर्य श्रिणिभिर्नृभिरस्यमाने। छिन्द्यात्प्रसह्य रुषतीमसतीम् प्रभुश्चेज्जिह्वामसून्नपि ततो विसृजेत् स धर्मः। अतस्तवोत्पन्नमिदम् कलेवरम् न धारयिष्येशिति कण्ठगर्हिणः। जग्धस्य मोहाद्धिविशुद्धिमन्दसो जुगुप्सितस्योद्धरणं प्रचक्षते। न वेदवादाननुवर्तते मतिः स्व एव लोके रमतो महामुनेः। यथा गतिर्देवमनुष्ययोः पृथक् स्व एव धर्मेण परं क्षिपेत् स्थितः। कर्मप्रवृत्तं च निवृत्तमप्रियतं वेदे विविच्योभयलिङ्गमाश्रितं। विरोधि तद्यौगपदैककर्तरि द्वयं तथा ब्रह्मणि कर्म नर्च्छति। मा वः पदव्यः पितरस्मदास्थिता या यज्ञशालासु न धूमवर्त्मभिः। तदन्नतृप्तैरसुभृद्भिरीडिता अव्यक्तलिङ्गावधूतसेविताः। नैतेन देहेन हरे कृतागसो देहोद्भवेनालमलं कुजन्मना। व्रीडा ममाभूत् कुजनप्रसङ्गतस्तज्जन्मधिज्ञो महतामवद्यकृत्। गोत्रं त्वदीयं भगवान् वृषध्वजो दाक्षायणीत्याह यदा सुदुर्मनाः। व्यपेत नर्मस्मितमाशु तद्ध्यहं व्युत्स्रक्ष्य एतत्कुणपं त्वदङ्गजम्। मैत्रेय उवाच, इत्यध्वरे दक्षमनूद्य शत्रुहन् क्षिताबुदीचीं निशसादशान्तवाक्। स्पृष्ट्वा जलम् पीतदुकूलसंवृता निमील्य दृग्योगपथम् समाविशत् कृत्वा समानावनिलौजितासना सोदानमुत्थाप्य च नाभिचक्रतः शनैर्हृदि स्थाप्य धियोरसि स्थितम् कण्ठाद्भ्रुवोर्मध्यमनिन्दितानयत् एवम् स्वदेहम् महताम् महीयसा मुहुः समारोपितमङ्कमादरात् जिहासती दक्षरुषा मनस्विनी दधार गात्रे स्वलिनाग्निधारणाम् तत स्वभर्तुश्चरणाम्बुजासवम् जगद्गुरोश्चिन्तयति न चापरम् ददर्श देहो हतकल्मषा सती सद्यः प्रज्ज्वालसमाधिजाग्निना तत्पश्यताम् खे भुवि चाद्भुतम् महत् हाहेति वादः सुमहान् जायत हन्त प्रिया दैवतमस्य देवी जहावसून् केन सती प्रकोपिता अहो अनात्म्यम् महदस्य पश्यत प्रजापतेर्यस्य चराचरम् प्रजाः जहावसून् यद्विमतात्मजा सती मनस्विनी मानमभीक्ष्णमर्हति सोऽयम् दुर्मर्ष हृदयो ब्रह्मधृक् च लोकेऽपकीर्तिम् महतीमवाप्स्यति यदङ्गजाम् स्वाम् पुरुषद्विडुद्यताम् न प्रत्यषेधन् ऋतये पराधतः वदत्येवम् जने सत्या दृष्ट्वा सुत्यागमद्भुतम् दक्षम् तत्पार्षदाहन्तु मुदतिष्ठन्नुदायुधाः तेषामापतताम् वेगम् निशाम्य भगवान् भृगुः यज्ञघ्नग्नेन यजुषा दक्षिणाग्नौ जुहावः अध्वर्युणा हूयमाने देवा उत्पेतुरोजसा ऋभवो नाम तपसा सोमम् प्राप्ता सहस्रशः तैरलाता युधैः सर्वे प्रमथा सह गुह्यकाः हन्यमाना दिशो भेजुरुषद्भिर्ब्रह्म तेजसा ओम् स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् चतुर्थस्कन्धे सतीदेहोत्सर्गो नाम चतुर्थोऽध्यायः श्रीकृष्णार्पणमस्तु नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम् भोजे रतिः स्यादनपायिनी।